ప్రజాపతిగుం హవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణాం బ్రహ్మణస్పత ఆన శృణ్వన్నోతిభిః సేదసాదనం ప్రణో దేవీ సరస్వతీ వాజేభిర్వాజినీవతి ధీనామవిత్రయవతో గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం. ఓం నమో భగవతే రుద్రాయ. ఓం నమస్తే రుద్రమన్యవ ఉతోతయిషవే నమః. నమస్తే అస్తు ధన్వనే బాహుభ్యాముతతే నమః. యాతయిషు శివతమా శివం బభూవతే ధనుః. శివాశరవ్యాయాతవతయా నో రుద్రమృడయా. యాతే రుద్ర శివా తనూరఘోరా పాపకాశినీ. తయానస్తను వాశంతమయా గిరిశంతాభిజాకశీ. యామిషుం గిరిశంతహస్తేభిభక్ష్యస్తవే. శివాంగిరిత్రతాం కురుమాహిగుంసీ పురుషం జగత్. శివే నవచసా త్వా గిరిశాచ్ఛా వదామసి. యథా నః సర్వమిజ్జగత యక్ష్మగుం సుమనా అసత్. అధ్యవోచదది వక్తా ప్రథమో దేవ్యోభిషక్. అహేగశ్చ సర్వాన్ జంభయన్ సర్వాశ్చ యాతు ధాన్యః. అసవ్యస్తామ్రో అరుణ ఉత బభ్రస్సు మంగళః. యే చేమాగుం రుద్రా అభితో దిక్షశ్రితా సహస్రశో వైశాగుం హేడగేమహే. అసవ్యో వసర్పతి నీలగ్రీవో విలోహితః. ఉతైనం గోపా అదృశన్న దృశన్న దహార్యః. ఉతైనం విశ్వా భూతాన దృష్టో మృడయాతినః. నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీఢుషే. అధోగే అస్య సత్వానోహం దేభ్యో గరం నమః. ప్రముంచ ధన్వనస్త్వముభయో రాత్రియోర్జా. యాశ్చ దేహస్త ఇషవః పరాతా భగవో వప. అవతత్య ధనుస్త్వగుం సహస్రాక్షశతేషు ధే. నిషేద్య శల్యాడాముఖా శివో న సుమనాభవ. విజ్యం ధనుః కపర్ధినో విశల్యో బాణవాగుం ఉత. అనేశన్నస్యేషవ ఆభురస్య నిశం గతిః. యాతే హేతిర్మీ దుష్టమహస్తే బభూవతే ధనుః. తయాత్మాన్ విశ్వతస్వమయక్ష్మయా పరిభుజ. నమస్తే అత్వాయుధాయానాతతాయ దృష్టవే. ఉభాభ్యాముత తే నమో బాహుభ్యాం తవ ధన్వనే. పరితే ధన్వనో హేతిరస్మాన్ వృణక్తు విశ్వతః. అధోయ ఇషుధిస్తవారే అస్మన్నిధేహితం. నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ త్రయంబకాయ త్రిపురాంతకాయ ಸಾತ್ವಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯಂ ಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ. ನಮೋ ಹಿರಣ್ಯಬಾಹವೇ ಸೇನಾನ್ಯೇ ದಿಶಾಂ ಚ ಪತಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯಃ ಪಶೂನಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಸತ್ಪಿಂಜರಾಯ ಕೃಷಿಮತೇ ಪಧೀನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಬಬ್ಲುಷಾಯ ವಿದ್ಯಾಧಿನೇಂದ್ರಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಹರಿಕೇಶಾಯೋಪವೇದಿನೇ ಪುಷ್ಟಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಭವತ್ಯ ಹೇತ್ಯೈ ಜಗತಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ರುದ್ರಾಯತತಾವಿನೇಕ್ಷೇತ್ರಾಣಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಸೂತಾಯ ಹಂತ್ಯಾಯ ವನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ರೋಹಿತಾಯ ಸ್ತಪತಯೇ ವೃಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಮಂದ್ರಿಣೇ ವಾಣಿಜಾಯ ಕಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಭುವಂತಯೇ ವಾರಿವ ಕೃತಾಯೌಷಧೀನಾಂ ಪತಯೇ ನಮೋ ನಮ. ಉಚ್ಚೈರ್ಘೋಷಾಯ ಕ್ರಂದಯತೇ ಪತ್ತೀನಾಂ ಪತಯೇ ನಮೋ ನಮ. ಕೃತ್ಸ್ನವೀತಾಯ ಧಾವತೇ ಸತ್ವನಾಂ ಪತಯೇ ನಮಃ. ನಮಃ ಸಹಮಾನಾಯ ನಿವ್ಯಾಧಿನ ಆವ್ಯಾಧಿನೀನಾಂ ಪತಯೇ ನಮೋ ನಮ. ಕಗುಭಾಯ ನಿಷಂಗಿಣೇ ಸೇನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ನಿಷಂಗಿಣ ಇಷುಧಿಮತೇ ತತ್ಕರಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ವಂಚತೇ ಪರಿವಂಚತೇ ಸ್ಥಾಯೂನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ನಿಚೇರವೇ ಪರಿಚರಾಯಾರಣ್ಯಾನಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಸೃಕಾವಿಭ್ಯೋ ಜಿಗಾಗುಂ ಸದ್ಭ್ಯೋಮುಷ್ಣತಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಸಿಮದ್ಭ್ಯೋ ನಕ್ತಂ ಚರದ್ಭ್ಯ ಪ್ರಕೃಂತಾನಾಂ ಪತಯೇ ನಮೋ ನಮ. ಉಷ್ಣೇಷಿಣೇ ಗಿರಿಚರಾಯ ಕುಲುಂಚಾನಾಂ ಪತಯೇ ನಮೋ ನಮ. ಇಷು ಮದ್ಭ್ಯೋ ಧನ್ವಾವಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. ಆತನ್ವಾನೇಭ್ಯ ದಧಾನೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. ಆಯಚ್ಚದ್ಭ್ಯೋ ವಿಸೃಜದ್ಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋಸ್ತ್ಯದ್ಭ್ಯೋ ವಿದ್ಯಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. ಆಸೀನೇಭ್ಯಶ್ಚ ಯಾನೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. ಸ್ವಪದ್ಭ್ಯೋ ಜಾಗ್ರದ್ಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. ತಿಷ್ಟದ್ಭ್ಯೋ ಧಾವದ್ಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. ಸಭಾಭ್ಯಸಭಾಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ. ಅಶ್ವೇಭ್ಯೋಶ್ವಪತಿಭ್ಯಶ್ಚ ವೋ ನಮಃ. ನಮ ಆವ್ಯಾಧಿನೀಭ್ಯೋ ವಿವಿಧ್ಯಂತೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. ಉಗಣಾಭ್ಯಸ್ತೃಗುಂಹದೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ. ಗೃತ್ಸೇಭ್ಯೋ ಗೃತ್ಸಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ. ವ್ರಾತೇಭ್ಯೋ ಪ್ರಾತಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ. ಗಣೇಭ್ಯೋ ಗಣಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ. ವಿರೂಪೇಭ್ಯೋ ವಿಶ್ವರೂಪೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ. ಮಹದ್ಭ್ಯಃ ಕ್ಷುಲ್ಲಕೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ. ರಥೇಭ್ಯೋ ರಥೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ. ರಥೇಭ್ಯೋ ರಥಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. ಸೇನಾಭ್ಯ ಸೇನಾನಿಭ್ಯಶ್ಚ వో నమో నమః క్షత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమః సక్షభ్యో రథకారేభ్యశ్చ వో నమో నమః కులాలేభ్యః కర్మారేభ్యశ్చ వో నమో నమః పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమః యశోగ్రద్భ్యో ధన్వగ్రద్భ్యశ్చ వో నమో నమో మృగయోభ్యశ్వనిభ్యశ్చ వో నమో నమః స్వభ్యశ్వపతిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః చర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కపర్దినే చ వ్యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిబివిష్టాయ చ నమో మేడుట్టమాయ చేషుమతే చ నమో హ్రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షేయసే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమ ఆశవే చాధిరాయ చ నమ శీఘ్రియాయ చ శేభ్యాయ చ నమ ఓర్భ్యాయ చ వత్సన్యాయ చ నమ శ్రోతస్యాయ చ ద్వేభ్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమ పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ ప్రగల్భాయ చ నమో జగన్యాయ చ బుద్ధియాయ చ నమ సోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమ ఉర్వ్యాయ చ ఖల్యాయ చ నమ శ్లోక్యాయ చ వసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమ శ్రవాయ చ ప్రతిశ్రవాయ చ నమ ఆశుషేణాయ చాశురథాయ చ నమ శూరాయ చ వభిందతే చ నమో వర్మినే చ వరోధినే చ నమో వెల్మినే చ కవచినే చ నమ శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హనన్యాయ చ నమో దృష్టవే చ ప్రమృషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగిణే చేషు ధీమతే చ నమ శేష్ణేశవే చాయుధినే చ నమ స్వాయుధాయ చ సుధన్వనే చ నమ శ్రుత్యాయ చ పత్యాయ చ నమ కాట్యాయ చ నీభ్యాయ చ నమ సూర్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైషంతాయ చ నమ కోప్యాయ చ వక్ష్యాయ చ నమో వర్ష్యాయ చ వశ్యాయ చ నమో మేధ్యాయ చ విద్యుత్యాయ చ నమ ఏద్రియాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మియాయ చ నమో వాస్తవ్యాయ చ వాత్సుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః తామ్రాయ చ రుణాయ చ నమ శంగాయ చ పశుపతయే చ నమ ఉగ్రాయ చ భీమాయ చ నమ అగ్రే వధాయ చ దూరే వధాయ చ నమో హంద్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమ ശംഭവേ ചമയോ ഭവേ ച നമ ശങ്കരായ ചമയസ്കരായ ച നമ ശിവായ ച ശിവതരായ ച നമ തീർത്ഥ്യായ ച കോല്യായ ച നമ ഭാര്യായ ച ഭാര്യായ ച നമ പ്രതരണായ ചോത്തരണായ ച നമ താദ്യായ ചാലാദ്യായ ച നമ ശഷ്പ്യായ ച ഭേന്യായ ച നമ സികത്യായ ച പ്രവാഹ്യായ ച നമ ഇരിണ്യായ ച പ്രപത്യായ ച നമ കേകം ശിലായ ച ക്ഷയനായ ച നമ കപർദ്ധിനേ ച പുലസ്തയേ ച നമോ ഗോഷ്ട്യായ ച ഗൃഹ്യായ ച നമ സൽപ്യായ ച ഗേഹ്യായ ച നമ കാട്യായ ച ഗഹ്വരേഷ്ഠായ ച നമോ ഹൃദയായ ച നിവേഷ്ട്യായ ച നമ പാഗുംധവ്യായ ച രജസ്യായ ച നമ ശുഷ്ക്യായ ച ഹരിത്യായ ച നമോ ലോപ്യായ ചോലഭ്യായ ച നമ ഊർജ്യായ ച സൂർജ്യായ ച നമ പർണ്യായ ച പർണശദ്യായ ച നമോ പകുരമാണായ ചാഭിഗ്രതേ ച നമ ആഖിദതേ ച രക്ഷിദതേ ച നമോ വക്കിരികേഭ്യോ ദേവാനാഗം ഹൃദയേഭ്യോ നമോ വിക്ഷേണകേഭ്യോ നമോ വിജിന്മക്കേഭ്യോ നമ ആനിർഹതേഭ്യോ നമ ആമീവത്കേഭ്യഃ ദ്രാപേ അന്ധസത്പദേ ദരിദ്രന്നീലലോഹിതാ േഷാം പുരുഷാണാമേഷാം പശൂനാം മാഭേർമാ രോമോ യേഷാം കിഞ്ചന മമത് യാതേ രുദ്ര ശിവാ തനോ ശിവാ വിശ്വാക ഭേഷജേ ശിവാ രുദ്രസ്യ ഭേഷജേ തയാനോ മൃഡജീവസേ ഹിമാകും രുദ്രായ തപസേ കവർദ്ധിരേ ക്ഷയദ്വീരായ പ്രവരാമഹേ മതിം യഥാ നശമസദ്വിപദേ ചതുഷ്പദേ വിശ്വം പുഷ്ടം ഗ്രാമേ അസ്മിന്നനാതുരം മൃഡാനോ രുദ്രോതനോ മയസ്കൃതി ക്ഷയദ്വീരായ നമസാ വിധേ മതേ യച്ഛം ചയോശ്ച മനുരായജേ പിതാ തദശ്യാമതവ രുദ്രപ്രണീതോ മാനോ മഹാന്തമുതമാനോ അർഭകം മാന ഉക്ഷന്തമുതമാന ഉക്ഷിതം മാനോ വധേ പിതരം മോദ മാതരം പ്രിയമാന സനുവോ രുദ്രരീരിഷഃ മാനസ്തോകേതന ഏമാന ആയുഷി മാനോ ഗോഷു മാനോ അശ്വേഷുരീരിഷ വീരാന്മാനോ രുദ്രഭാമിതോവതീർഹവിഷ്മന്തോ നമസാ വിധേമതേ ആരാത്തേ ഗോഘ്നമുത പൂരുഷഗ്രേ ക്ഷയത്വീരായ സും നമസ്മേതേ അസ്തു രക്ഷാജനോ അരിജദേവ ബ്രൂഷധാജന ശർമയച്ഛ ദ്വിപരുഹാഃ സ്തുഹി ശ്രുതം ഗത്ത സദം യുവാനം മൃഗന്ന ഭീമമുപഹത്രുമുഗ്രം മൃഡാചരിദ്രേ രുദ്രസ്തവാനോ അന്യന്തേ അസ്മന്നിവ ബന്ധുസേനാഃ പരിണോ രുദ്രസ്യ ഹേതൃണക്തു പരിത്വേഷസ്യ ദുർമതിരഗായോ ഭവസ്തിരാമദവധ്യസ്തനുശ്വമേവ ശോകായതനയായ മൃഡയ മീഢുഷ്ടമശിവതമശിവോ നഃ സുമനാഭവ പരമേ വൃക്ഷ ആയുധം നിദായ കൃത്യം വസാദമാചരപിനാകം ബിഭ്രദാഗഹേ ವಿಕಿರಿತ ವಿಲೋಹಿತ ನಮಸ್ತೇ ಅಸ್ತು ಭಗವಃ ಯಾತ್ತೇ ಸಹಸ್ರ ಗುಂಹೇತಯೋನ್ಯಮಸ್ಮನ್ನಿವ ಪಂತುತಃ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರದಾ ಬಾಹುವೋತ್ಸವ ಹೇತಯಃ ತಾಸಾಮೀಶಾನೋ ಭಗವ ಪರಾಚೇನಾ ಮುಖಾಗ್ರದೇ ಸಹಸ್ರಾಣಿ ಸಹಸ್ರಶೋ ಯೇ ರುದ್ರ ಅಧಿಭೂಮ್ಯಾ ತೇಷಾಗುಂ ಸಹಸ್ರಯೋಜನೇ ವಧನ್ವಾನಿ ತನ್ಮಸೇ ಅಸ್ಮಿನ್ ಮಹತ್ಯರ್ನವೇಂದರಿಕ್ಷೇ ಭವಾದೇ ನೀಲಗ್ರೀವಾಶಿತಿ ಕಂಠಾ ಶರ್ವಾ ಅಧಃ ಕ್ಷಮಾಚರಾಃ ನೀಲಗ್ರೀವಾಶಿತಿ ಕಂಠಾದಿವಗಂ ರುದ್ರ ಉಪಶ್ರಿತಾಃ ಯೇ ವೃಕ್ಷೇಷು ತಸ್ಮಿನ್ ಜರಾ ನೀಲಗ್ರೀವಾ ವಿಲೋಹಿತಾಃ ಯೇ ಭೂತಾನಾಮಧಿಪತಯೋ ವಿಶಿಗಾತಃ ಕಪರ್ದಿನಃ ಯೇ ಅನ್ಯೇಷು ವಿವಿಧ್ಯಂತಿ ಪಾತ್ರೇಷು ವಿಪದೋ ಜನಾತ್ ಯೇ ಪಧಾಂಬದಿರಕ್ಷಯ ಐಲಭೃತಾಯ್ಯುಧಃ ಯೇ ತೀರ್ಥಾಣಿ ಪ್ರಜರಂತಿ ಶೃಗಾವಂತೋ ನಿಷಂಗಿಣಃ ಯಜೇತಾವಂತಶ್ಚ ಭೂಯಾಗುಂಸಶ್ಚ ದಿಶೋ ರುದ್ರಾವಿತಸ್ಥಿರೇ ತೇಷಾಗುಂಸಹಸ್ರಯೋಜನೇ ವಧನ್ವಾನಿ ತನ್ಮಸೇ ನಮೋ ರುದ್ರೇಭ್ಯೋಗೇ ಪೃಥಿವ್ಯಾಂಗೇಂದರಿಕ್ಷೇಗೇ ದಿವಿಗೇ ಶಾವನ್ನ ಪಾತೋ ವರುಷಮಿಷವಸ್ತೇಭ್ಯೋ ದಶ ಪ್ರಾಚೇರ್ದಶ ದಕ್ಷಿಣಾ ದಶ ಪ್ರತಿಚೇರ್ಗಶೋ ದೇಚೇರ್ಗಶೋರ್ಧ್ವಸ್ತೇಭ್ಯೋ ನಮಸ್ತೇ ನೋ ಮೃಳಯಂತು ತೇಯಂ ಭೀಷ್ಮೋ ಯಶ್ಚ ನೋ ದ್ವೇಷಿತಂ ಭೋಜಂ ಹೇ ದದಾಮಿ ತ್ರ್ಯಂಬಕಂ ಯಜಾಮಹೇ ಸುಗಂಧಿಂ ಪುಷ್ಟಿವರ್ಧನಂ ಉರ್ವಾರುಕಮಿವ ವಂದನಾನ್ ಮೃತ್ಯೋರ್ಮುಕ್ಷೇಯಮಾಮೃತಾತ್ ಯೋ ರುದ್ರೋ ಅಗ್ನವ್ಯೋ ಅಪ್ಸು ಯ ಓಷಧೇಷು ಯೋ ರುದ್ರೋ ವಿಶ್ವ ಭುವನಾ ವಿವೇಶ ತಸ್ಮೈ ರುದ್ರಾಯ ನಮೋ ಅಸ್ತು ಏತೇ ಸಹಸ್ರಮಯುತಂ ಪಾಶಾ ಮೃತ್ಯೋ ಮತ್ಯಾಯ ಹಂತವೇ ತಾನ್ಯಜ್ಞಸ್ಯ ಮಾಯಯಾ ಸರ್ವಾನವಯಜಾಮಹೇ ಮೃತ್ಯವೇತ್ಸ್ವಾಹಾ ಪ್ರಾಣಾನಾಂ ಗ್ರಂಥಿರಸಿ ರುದ್ರೋ ಮಾ ವಿಶಾಂತಕಃ ತೇನಾನ್ಯೇನಾಪ್ಯಾಯಸ್ವ ನಮೋ ರುದ್ರಾಯ ವಿಷ್ಣವೇ ಮೃತ್ಯುರ್ಮೇ ಪಾಹಿ ತಮಸ್ತು ಹಿಯತ್ವಿಷಸ್ಸು ಧನ್ವಾಯೋ ವಿಶ್ವಸ್ಯ ಕ್ಷಯತಿ ಭೇಷಜಸ್ಯ ಯಕ್ಷ್ವಾ ಮಹೇಶೋ ಮನಸಾಯ ರುದ್ರಂ ನಮೋ ಭಿರ್ದೇವಮಸುರಂಧುವಸ್ಯ ಅಯಂ ಮೇ ಹಸ್ತೋ ಭಗವಾನ್ ಅಯಂ ಮೇ ಭಗವತ್ತರಃ ಅಯಂ ಮೇ ವಿಶ್ವಭೇಷ ಜೋಯಗು ಶಿವಾಭಿಮರುಷನಃ ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿಃ ಓಂ ಅಗ್ರ ವಿಷ್ಣು ಸಜೋಷಸೇ ಮಾ ವರ್ಧಂತು ವಾಂಗಿರಃ ದ್ಯುಮ್ನೈರ್ವಾಜೇಭಿರಾಗತಂ ವಾಜಸ್ಯ ಮೇ ಪ್ರಸವಸ್ಯ ಮೇ ಪ್ರಯತಿಶ್ಚ ಮೇ ಪ್ರಸಿತಿಶ್ಚ ಮೇ ಧೀತಿಶ್ಚ ಮೇ ಕ್ರತುಶ್ಚ ಮೇ ಸ್ವರಶ್ಚ ಮೇ ಶ್ಲೋಕಶ್ಚ ಮೇ ಶ್ರಾವಶ್ಚ ಮೇ ಶ್ರುತಿಶ್ಚ ಮೇ ಜ್ಯೋತಿಶ್ಚ ಮೇ ಸುವಶ್ಚ ಮೇ ಪ್ರಾಣಶ್ಚ ಮೇ ಪಾನಶ್ಚ ಮೇ ವ್ಯಾನಶ್ಚ ಮೇ ಸುಶ್ಚ ಮೇ ಚಿತ್ತಂ ಚ ಮಾಧೀತಂ ಚ मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे चर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे ज्येष्ठ्यम् च म आधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे क्लृप्तम् च मे क्लृप्तिश्च मे मतिश्च मे सुमतिश्च मे शजम् च मे मयश्च मे प्रियम् च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे सेरम् च मे लयश्च च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ओच्च मे सोनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सग्दिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जयेत्रम् च म औद्भिद्यम् च मे रयिश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कूयवाश्च मे नम् च मे क्षुच्च मे ब्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे निवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे सेतम् च मे त्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च म आपश्च मे विरुधश्च म ओषधयश्च मे कृष्टपच्यम् च मे कृष्टपच्यम् च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तम् च मे वित्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे मे कर्म च मे शर्मश्च मे अर्थश्च महेमश्च महितिश्च मे गतिश्च मे अग्निश्च महिन्द्रश्च मे सोमश्च महिन्द्रश्च मे सविता च महिन्द्रश्च मे सरस्वती च महिन्द्रश्च मे पूषा च महिन्द्रश्च मे बृहस्पतिश्च महिन्द्रश्च मे मित्रश्च महिन्द्रश्च मे वरुणश्च महिन्द्रश्च मे त्वष्टा च महिन्द्रश्च मे धाता च महिन्द्रश्च मे विष्णुश्च महिन्द्रश्च मे चिनौ च महिन्द्रश्च मे मरुतश्च महिन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च महिन्द्रश्च मेऽन्तरिक्षम् च महिन्द्रश्च मे द्यौश्च महिन्द्रश्च मे दिशश्च महिन्द्रश्च मे मूर्धा च महिन्द्रश्च मे प्रजापतिश्च महिन्द्रश्च मे अगुंशुश्च मे रश्मिश्च मे धाभ्यश्च मे धिपतिश्च महुपागुंशुश्च मेऽन्तर्यामश्च महैन्द्रवायवश्च मे मैत्रावरुणश्च महाश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च महाग्रगणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतु ग्रहाश्च मेति ग्राह्याश्च महेन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वदीयाश्च मे माहेन्द्रश्च महादित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे वात्रीभतश्च मे हार्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णीयाश्च मे शुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च महुपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे बोधभृच्च माधवनीयश्च माग्नेर्ध्रम् च मे हविर्धानम् च मे गृहाश्च मे सदश्च मे पुरोणाशाश्च मे पचताश्च मे वभृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरेरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृच्च मे ताम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयो वृष्ट्या बृहद्रथम् तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाच्च मे दित्यौ हे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौ हे च मे पष्ठवाच्च मे पष्ठौ हे च म उक्षा च मे वशा च मऋषभश्च मे देहश्च मे नड्वाञ्च मे धेनुश्च महायुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्या ಯಜ್ಞಾನು ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಚಕ್ಷುರ್ಯಜ್ಞೇನ ಕಲ್ಪತಾ ಗೃಶ್ರೋತ್ರಂ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ವಾಗ್ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಆತ್ಮಾ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಯಜ್ಞೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಏಕಾ ಚ ಮೇ ತಿಸ್ರಶ್ಚ ಮೇ ಪಂಚ ಚ ಮೇ ಸಪ್ತ ಚ ಮೇ ನವ ಚ ಮ ಏಕಾದಶ ಚ ಮೇ ತ್ರಯೋದಶ ಚ ಮೇ ಪಂಚದಶ ಚ ಮೇ ಸಪ್ತದಶ ಚ ಮೇ ನವದಶ ಚ ಮ ಏಕ ವಿಗುಂಶತಿಶ್ಚ ಮೇ ತ್ರಯೋ ವಿಗುಂಶತಿಶ್ಚ ಮೇ ಪಂಚ ವಿಗುಂಶತಿಶ್ಚ ಮೇ ವಿಗುಂಶತಿಶ್ಚ ಮೇ ನವ ವಿಗುಂಶತಿಶ್ಚ ಮೇಕ ತ್ರಿಗುಂಶಚ್ಚ ಮೇ ತ್ರಯಸ್ತ್ರಿಗುಂಶಚ್ಚ ಮೇ ಚತಸ್ರಶ್ಚ ಮೇಷ್ಟೌ ಚ ಮೇ ದ್ವಾದಶ ಚ ಮೇ ಷೋಡಶ ಚ ಮೇ ವಿಗುಂಶತಿಶ್ಚ ಮೇ ಚತುರ್ವಿಗುಂಶತಿಶ್ಚ ಮೇಷ್ಟಾ ವಿಗುಂಶತಿಶ್ಚ ಮೇ ದ್ವಾತ್ರಿಗುಂಶಚ್ಚ ಮೇ ಷತ್ರಿಗುಂಶಚ್ಚ ಮೇ ಚತ್ವಾರಿಗುಂಶಚ್ಚ ಮೇ ಚತುಶ್ಚತ್ವಾರಿಗುಂಶಚ್ಚ ಮೇಷ್ಟಾ ಚತ್ವಾರಿಗುಂಶಚ್ಚ ಮೇ ವಾಜಶ್ಚ ಪ್ರಸವಶ್ಚ ಬಿಜಶ್ಚ ಕ್ರತುಶ್ಚ ಸುಭಶ್ಚ ಮೂರ್ಧಾ ಚ ವ್ಯಷ್ಟಿಯಶ್ಚಾಂದ್ಯಾಯನಶ್ಚಾಂದ್ಯಶ್ಚ ಭುವನಶ್ಚ ಭುವನಶ್ಚಾಧಿಪತಿಶ್ಚ ಇಡಾದೇವಹೋರ್ಮನುರ್ಯಜ್ಞನೀರ್ಬೃಹಸ್ಪತಿರುದ್ಧಾಮದಾನಿ ಚ ಗುಂಧಿಷ ವಿಶ್ವೇ ದೇವಾಸೋಕ್ತವಾಚ ಪೃಥಿವೀ ಮಾತರ್ಮಾಮಾಹಿ ಗುಂಧೇರ್ಮಧುಮದಿಷ್ಯೇ ಮಧುಜನಿಷ್ಯೇ ಮಧುವಕ್ಷ್ಯಾಮಿ ಮಧುವದಿಷ್ಯಾಮಿ ಮಧುಮತೇ ದೇವೇಭ್ಯೋ ವಾಚ ಮುದ್ಯಾಸಗು ಶುಶ್ರೂಷೇಣ್ಯಾ ಮನುಷ್ಯೇಭ್ಯಸ್ತಂ ಮಾ ದೇವಾ ಅವಂದು ಶೋಭಾಯಿ ಪಿತರೋ ನು ಮದಂತು ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಯೋರಾವೃಣೀಮಹೆ ಗಾತುಂ ಯಜ್ಞಾಯ ಗಾತುಂ ಯಜ್ಞಪದಗೇ ದೈವೇ ಸ್ವಸ್ತಿರಸ್ತು ನಃ ಸ್ವಸ್ತಿರ್ಮಾನುಷೇಭ್ಯಃ ಊರ್ಧ್ವಂ ಚಿ ಗಾತು ಭೇಷಜಂ ಶನ್ನೋ ಅಸ್ತು ದ್ವಿಪದೇ ಶಂ ಚತುಷ್ಪದೇ ಓಂ ಶಾಂತಿ 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 ಸಹಸ್ರಶೀರ್ಷಾ ಪುರುಷಃ ಸಹಸ್ರಾಕ್ಷ ಸಹಸ್ರಪಾತ್ ಸಭೂಮಿಂ ವಿಶ್ವತೋ ವೃತ್ವಾ ಅತ್ಯತಿಷ್ಠದ್ ದಶಾಂಗುಲಂ ಪುರುಷ ಏವೇದಗುಂ ಸರ್ವಂ ಯದ್ಭೂತಂ ಯಚ್ಚ ಭವ್ಯಂ ಉತಾಮೃತತ್ವಸ್ಯೇಷಾನಃ ಯದನ್ನೇನಾತಿರೋಹತಿ ಏತಾವಾನಸ್ಯ ಮಹಿಮಾ ಅಥೋಜ್ಯಾಯಾಗಶ್ಚ ಪುರುಷಃ ಪಾದೋಸ್ಯ ವಿಶ್ವಾ ಭೂತಾನಿ ತ್ರಿಪಾದಸ್ಯಾವೃತಂ ದಿವಿ ತ್ರಿಪಾದೋರ್ಧ್ವ ಉದಯ ಪುರುಷಃ ಪಾದೋಸ್ಯೇಹ ಭವಾತ್ ಪುನಃ ತಥೋ ವಿಶ್ವಂ ವ್ಯಕ್ರಾಮತ್ ಸಾಶನಾನಶನೆ ಅಭಿ ತಸ್ಮಾದ್ ವಿರಾಡ ಜಾಯತ ವಿರಾಜೋ ಅಧಿಪುರುಷಃ ಸಜಾತೋ ಅತ್ಯರಿಚ್ಯತ ಪಶ್ಚಾತ್ ಭೂಮಿಮತೋ ಪುರಃ ಯತ್ಪುರುಷೇನ ಹವಿಷಾ देवा यज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्मेत्मशरद्दवे सप्तास्यासन् परिधयः त्रिसप्तसमिदकृताः देवा यज्ञज्ञम् तन्वाराः अबध्नन् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये तस्माद्यज्ञात् सर्वहुतः संवृतम् वृषदाज्यम् पशोस्तादश्चक्रे वायव्यान आरण्यान् ग्राम्याश्रये तस्माद्यज्ञात् सर्वहुतः रुचस्सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एके चोभयादतः गावोह जग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यददुः कदिदाव्यकल्पयन् मुखम् किमस्य कौ बाहो का वोरूपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यकृतः ऊरु तदस्य यद्वैश्यः पद्व्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षुः सूर्यो अजायत मुखादिन्द्रस्याग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शेष्णोद्यौ समवर्तत पद्भ्याम्भोमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्यधीरः नामानि कृत्वाभिवधन्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वान् अमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सजन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्यः सम्भूत पृथिव्यैरसा च विश्वकर्मणः समवर्ततादि तस्य त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते अनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मनीषीणाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपते यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन्
यस्त्वैवं ब्राह्मणो विद्यात् तस्य देवा असन्वशे रेशते लक्ष्मीश्च पत्न्यो अहो रात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाना अमुम् मनिषाना सर्वम् मनिषाना तच्चयोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ शन्नो मित्रः शं वरुणः शन्नो भवत्वर्यमा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वमेव प्रत्यक्षम् ब्रह्म वदिष्यामि ऋतम् वदिष्यामि सत्यम् वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवतु माम् अवतु वक्तारम् ॐ शान्ति शान्ति शान्तिः शिक्षाम् व्याख्यास्यामः वर्णस्वरः मात्रा बलम् सामसन्तानः इत्युक्तस्येक्षाध्यायः सह नौ यशः सह नौ ब्रह्मवर्चसम् अथातः सगुंहिताया उपनिषदम् व्याख्यास्यामः पञ्चस्वधिकरणेषु अधिलोकमधिज्योतिषमधिविद्यमधिव्रजमध्यात्मम् तामः सगुंहिता इत्याचक्ष्यते अथाधिलोकम् पृथिवी पूर्वरूपम् द्यौरुत्तररूपम् आकाशः सन्धिः वायुः सन्धानम् इत्यधिलोकम् अथाधिज्योतिषम् अग्निः पूर्वरूपम् आदित्य उत्तररूपम् आपः सन्धिः वैद्युतः सन्धानम् इत्यधिज्योतिषम् अथाधिविद्यम् आचार्यः पूर्वरूपम् अन्ते वास्युत्तररूपम् विद्या सन्धिः प्रवचनगुम् सन्धानम् इत्यधिविद्यम् अथाधिप्रजम् माता पूर्वरूपम् पितोत्तररूपम् प्रजा सन्धिः प्रजननगुम् सन्धानम् इत्यधिप्रजम् अथाध्यात्मम् अधराहनुः पूर्वरूपम् उत्तराहनुरुत्तररूपम् वाक्सन्धिः जिह्वासन्धानम् इत्यध्यात्मम् इति मा महासगुंहिताः य एवमेता महासगुंहिता व्याख्याता वेदा सन्धीयते प्रजया पशुभिः ब्रह्मवर्चसेनान्नाद्येन सुवर्गेण लोकेन यच्छन्दसा वृषभो विश्वरूपः छन्दोभ्योऽध्यमृतात् सम्बभूव समेन्द्रो मेधया स्पृणोतु अमृतस्य देवधारणो भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम् भूरिविश्रुवम् ब्रह्मणः कोशोऽसि मेधया पिहितः श्रुतम् मे गोपाया आवहन्ति वितन्वाना कुर्वाणाचीरमात्मनः वासागुंसि मम गावश्च अन्नपाने च सर्वदा ततो मे श्रियमावह लोमशाम् पशुभिः सहस्वाः कामायन्तु ब्रह्मचारिणः स्वाहा विमायन्तु ब्रह्मचारिणः स्वाहा प्रमायन्तु ब्रह्मचारिणः स्वाहा दमायन्तु ब्रह्मचारिणः स्वाहा क्षमायन्तु ब्रह्मचारिणः स्वाहा यशोजने सा नि स्वाहा श्रेयान्वस्य सोऽसा नि स्वाहा त्वम् त्वा भगप्रविशा नि स्वाहा समा भगप्रविश स्वाहा तस्मिन् सहस्रशाखे निभगाहम् त्वयि मृजे स्वाहा यथा प्रवतायन्ते यथा माता अहर्जरम् एवम् माम् ब्रह्मचारिणः धातरायन्तु सर्वतः स्वाहा प्रतिवेशोऽसि प्रमाभाहि प्रमापद्यस्वा भूर्भुवः सुवरिति वा एता श्रिश्रो व्याहृदयः तासामुहस्मैताम् चतुर्थे माहाचमस्य प्रवेदयते मह इति तद्ब्रह्मा स आत्मा अङ्गान्यन्या देवताः भूरिति वा अयम् लोकः भुव इत्यन्तरिक्षम् सुवरित्यसौ लोकः मह इत्यादित्यः आदित्येन वाव सर्वे लोका महीयन्ते भूरिति वा अग्निः भुव इति वायुः सुवरित्यादित्यः मह इति चन्द्रमा चन्द्रमसा वाव सर्वाणि ज्योतिगुंषि महीयन्ते भूरिति वा रुचः भुव इति सामानि सुवरिति यजोगुंषि मह इति ब्रह्मा ब्रह्मणा वाव सर्वे वेदा महीयन्ते भूरिति वै प्राणः भुव इत्यपानः सुवरिति व्यानः मह इत्यन्नम् अन्नेन वाव सर्वे प्राणा महीयन्ते तावा एता चतस्रश्चतुर्धा चतस्रश्चतस्रो व्याहृतयः तायो वेदा स वेद ब्रह्मा सर्वे एस्मै देवा बलिमावहन्ति स य एषोऽन्तरहृदय आकाशः तस्मिन्नयम् पुरुषो मनोमयः अमृतो हिरण्मयः अन्तरेण तालुके य एष सन इवावलम्बते सेन्द्रयोनिः यत्रासौके शान्तो विवर्तते व्यपोह्य शीर्षकपाले भूरित्यग्नौ प्रतितिष्ठते भुव इति वायौ सुवरित्यादित्ये मह इति ब्रह्मणि आप्नोति स्वाराज्यम् आप्नोति मनसस्पतिम् वाक्पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञानपतिः एतत्ततो भवति आकाशशरीरं ब्रह्म सत्यात्मप्राणारामं मन आनन्दम् शान्तिसमृद्धममृतम् इति प्राचीनयोग्योपास्वा पृथिव्यन्तरिक्षम् ज्योर्दिशो वान्तरदिशाः अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि आप ओषधयो वनस्पतय आकाश आत्मा इत्यधिभूतम् अथाध्यात्मम् प्राणो व्यानोपान उदानः समानः चक्षुश्रोत्रम् मनोवाक्त्वक् चर्ममागुंसद्गुस्नावास्ति मज्जा एतदधिविधाय ऋषिरवोचत् पान्तम् वा इदगुम् सर्वम् पान्तेनैव पान्तग्स्पृणोतीति ओमिति ब्रह्म ओमितीदगुम् सर्वम् ओमित्येतदनुकृतिः स्म वा अप्योश्रावयेत्याश्रावयन्ति ओमिति सामानि गायन्ति ओगुं शोमिति शस्त्राणि सगुंसन्ति ओमित्यध्वर्य प्रतिगरम् प्रतिगृणाति ओमिति ब्रह्मा प्रसौति ओमित्यग्निहोत्रमनुजानाति ओमिति ब्राह्मण प्रवक्षन्नाः ब्रह्मोपाप्नवानीति ब्रह्मैवोपाप्नोति ऋतम् च स्वाध्याय प्रवचने च सत्यम् च स्वाध्याय प्रवचने च तपश्च स्वाध्याय प्रवचने च नमश्च स्वाध्याय प्रवचने च शमश्च स्वाध्याय प्रवचने च अग्नयश्च स्वाध्याय प्रवचने च अग्निहोत्रम् च स्वाध्याय प्रवचने च अतिथयश्च स्वाध्याय प्रवचने च मानुषम् च स्वाध्याय प्रवचने च प्रजा च स्वाध्याय प्रवचने च प्रजनश्च स्वाध्याय प्रवचने च प्रजातिश्च स्वाध्याय प्रवचने च सत्यमिति सत्यवचाराधीतरः तप इति तपो नित्यः पौरुसृष्टिः स्वाध्याय प्रवचने एवेति नाको मौद्गल्यः तद्धि तपस्तद्धि तपः अहम् वृक्षस्य रेरिव केतिर्पृष्टम् गिरेरिव ऊर्ध्वपवित्रो वादिनीव स्वमृतमस्मि द्रविणगुन्दवर्चसम् सुमेधा अमृतोक्षितः इति त्रिशङ्गोर्वेदानुवचनम् शन्नो मित्रः शं वरुणः शन्नो भवत्वर्यमा शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षम् ब्रह्मासि त्वामेव प्रत्यक्षम् ब्रह्मावादिशम् ऋतमवादिशम् सत्यमवादिशम् तन्मामावेत् त्वद्वक्तारमावेत् आवेन्माम् आवेद्वक्तारम् ॐ शान्ति शान्ति शान्तिः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ
Shanti, Shanti, Shanti.